मोक्षमार्गस्य नेतारं भेत्तारं कल्मभूभृतां ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये। अथ प्रथमोऽध्यायः। सम्यक् दर्शन ज्ञान चरित्राणि मोक्षमार्गः तत्त्वार्थश्रद्धानं सम्यक् दर्शनं तन्निसर्गादधिगमाद्वा जीवाजीवाश्रवबन्धसंवर्निर्जरा मोक्षास्तत्त्वं नामस्थापना द्रव्यभावतस्तन्न्यासः प्रमाणनयैरधिगमः निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तर्भावाल्पबहुत्वैश्च मतिश्रुतावधिमनःपर्ययकेवलानिज्ञानं तत्प्रमाणे आद्ये परोक्षं प्रत्यक्षमन्यत् मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् तदिन्द्रियानिन्द्रियनिमित्तम् अवग्रहेहावायधारणाः बहुबहुविधक्षिप्राणि श्रुतानुक्तध्रुवाणां सेतराणाम् अर्थस्य व्यञ्जनस्यावग्रहः न चक्षुरनिन्द्रियाभ्यां श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदं भवप्रत्ययो वधिर्देवनारकाणां क्षयोपशमनिमित्तः षड्विकल्पः शेषाणां ऋजुविपुलमती मनःपर्ययः विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः विशुद्धिक्षेत्रस्वामिविषयेभ्यो वधिमनःपर्यययोः मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु रूपिष्वधेः तदनन्तभागे मनःपर्ययस्य सर्वद्रव्यपर्यायेषु केवलस्य एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः मतिश्रुतावधयो विपर्ययश्च सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् नैगं सङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवं भूता नयाः इति प्रथमोऽध्यायः। अथ द्वितीयोऽध्यायः। औपिशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमं सम्यक्त्वचारित्रे ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंहितासिद्धलेश्याश्चतुश्चतुस्त्रियेकैकैकषड्भेदाः जीवभव्याभव्यत्वानि च उपयोगो लक्षणं सद्विविधोऽष्टचतुर्भेदः संसारिणो मुक्ताश्च समनस्कामनस्काः संसारिणस्त्रसस्थावराः पृथिव्यप्तेजो वायुवनस्पतयः स्थावराः द्वीन्द्रियादयस्त्रसाः पञ्चेन्द्रियाणि द्विविधानि निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियं स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि स्पर्शरसगन्धवर्णशब्दास्तदर्थाः श्रुतमनिन्द्रियस्य वनस्पत्यन्तानामेकं कृमिपिपीलिका भ्रमरमनुष्यादीनामेकैकवृद्धानि संज्ञिनः समनस्काः विग्रहगतौ कर्मयोगः अनुश्रेणि गतिः अविग्रहा जीवस्य विग्रहवती च संसारिणः प्राक्चतुर्भ्यः एकसमया विग्रहा एकं द्वौ त्रीन् वा नाहारकः सम्मूर्छन गर्भोपपादा जन्म सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः जरायुजाण्डजपूतानां गर्भः देवनारकाणामुपपादः शेषाणां सम्मूर्छनं औदारिक वैक्रियक आहारक तैजस कारमणानि शरीराणि परम परम सूक्ष्मम प्रदेशतो संखेय गुणम प्राक तैजसा अनंत गुणे परे अप्रतिघाते अनादि संबंधेच सर्वस्य तदादीन भाज्यानि युगपदैकस्या चतुर्भ्यः निरुपभोग मन्त्यम् गर्भसम्मूर्छनज माध्यम औपपादिकं वैक्रियकं लब्धि प्रत्ययञ्च तैजसमपि शुभं विशुद्धमव्याघाति चाहारकं प्रमत्त संयतस्यैव नारकसम्मूर्छिनो न पुंसकानि न देवाः शेषास्त्रिवेदाः औपपादिकचर्मोत्तमदेहासंख्येयवर्षायुषो न पवर्त्यायुषः इति द्वितीयोऽध्यायः। अथ तृतीयोऽध्यायः। रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधूधः तासुत्रिंशत् पञ्चविंशति पञ्चदश दशत्रिपञ्चो नैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम्। नारका नित्याशुभतरलेश्या परिणामदेहवेदना विक्रियाः परस्परोदीरितदुःखाः संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः तेष्वेकत्रिसप्तदश सप्तदश द्वाविंशति त्रयस्त्रिंशत् सागरूपमा सत्त्वानां परास्थितिः। जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः। तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः भरतहैमवत् हरिविदेह रम्यकहैरण्यवतैरावत् वर्षाः क्षेत्राणि। तद्विभाजिनः पूर्वापरायता हिमवन् महाहिमवन् निषदनीलरुक्मि शिखरिणो वर्षधरपर्वताः हेमार्जनतपनीयवैडूर्यरजतहेममयाः मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः पद्ममहापद्मतिगिञ्चकेसरि महापुण्डरीकपुण्डरीका हृदास्तेषामुपरि। प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः दशयोजनावगाहः तन्मध्ये योजनं पुष्करं तद्विगुणद्विगुणा हृदाः पुष्कराणि च। तन्निवासिन्यो देव्यः श्री ह्री धृति कीर्ति बुद्धि लक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः गंगा सिंधु रोहित द्रोहितास्या हरिद्धरिकांता सीता सीतोदा नारी नरकांता सुवर्ण रूप्यकूला रक्ता रक्तोदाः सरितस्तन्मध्यगाः द्वयोर्द्वयोः पूर्वाः पूर्वगाः शेषास्त्वपरगाः चतुर्दश नदी सहस्र परिवृता गंगा सिंध्वादयो नद्यः। भरतः षड्विंश पञ्चयोजन शतविस्तारः षट्चैकोनविंशतिभागा योजनस्य। तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः उत्तरादक्षिणतुल्याः भरतैरावतयोर्वृद्धिः रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ताभ्यामपरा भूमयोवस्थिताः एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः तथोत्तराः विदेहेषु संख्येयकालाः। भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः द्विर्धातकी खण्डे पुष्करार्धे च प्राङ्मानुषोत्तरान् मनुष्याः आर्या म्लेच्छाश्च भरतैरावत विदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः। निःस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते तिर्यज्ञो निजानाञ्च इति तृतीयोऽध्यायः। अथ चतुर्थोऽध्यायः। देवाश्चतुर्णिकायाः आदितस्त्रिषु पीतान्तलेश्याः दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः इन्द्रसामान्यकत्रयस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विशिकाश्चैकशः त्रयस्त्रिंशलोकपालवर्ज्याव्यन्तरज्योतिष्काः पूर्वयोर्द्वीन्द्राः कायप्रवीचारा आ ऐशानात् शेषाः स्पर्श रूप शब्द मनः प्रवीचाराः परे प्रवीचाराः भवनवासिनो सुरनाग विद्युत सुपर्णाग्नि वातस्तनितो दधि द्वीप दिक्कुमाराः व्यंतराः किन्नर किम पुरुष महोरघ गंधर्व यक्ष राक्षस भूत पिशाचाः ज्योतिष्काः सूर्या चंद्रमसौ ग्रह नक्षत्र प्रकीर्णक तारकाश्च मेरु प्रदक्षिणा नित्यगतयो नृलोके तत्कृतः काल विभागः बहिरवस्थिताः वैमानिकाः कल्पोपपन्नाः कल्पातीताश्च उपर्युपरि सौधर्मैशान सानत कुमार महेन्द्र ब्रह्म ब्रह्मोत्तर लांतव कापिष्ठ शुक्र महाशुक्र शतार सहस्रारेश्वानत प्राणतयोरारणाच्युतयोर नवसुग्रैवैयकेषु विजय वैजयंत जयंता पराजितेषु सर्वार्थ सिद्धौ च स्थिति प्रभाव सुखद्युतिलेश्या विशुद्धींद्रियावधि विषयतोधिकाः गति शरीर परिग्रहाभिमानतो हीनाः पीत पद्म शुक्लेश्या द्वित्रिशेषेषु प्राग्रैवेयकेभ्यः कल्पाः ब्रह्मलोकालया लौकांतिकाः सारस्वतादित्य वन्यरुणगर्दतो यतुषिता व्याबाधा हृष्टाश्च विजयादिषु द्विचरमाः औपपादिक मनुष्येभ्यः शेषास्तिर्यग्योनयः स्थितिरसुरनागसुपर्ण द्वीपशेषाणां सागरोपमत्रिपल्योपमार्धहीनमिता सौधर्मैशानयोः सागरोपमे अधिके सानत्कुमारमाहेन्द्रयोः सप्त त्रिसप्त नवैकादश त्रयोदश पञ्चदशभिरधिकानि तु आरणाच्युता दूर्ध्वमेकैकेन नवसुग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च अपरा पल्योपममधिकं परतः परतः पूर्वापूर्वानन्तरा नारकाणाञ्च द्वितीयादिषु दशवर्षसहस्राणि प्रथमायां भवनेषु च व्यन्तराणाञ्च परापल्योपममधिकं ज्योतिष्काणाञ्च तदष्टभागोपरा लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् इति चतुर्थोऽध्यायः अथ पञ्चमोऽध्यायः अजीवकाया धर्माधर्माकाश उद्गलाः द्रव्याणि जीवाश्च नित्यावस्थितान्यरूपाणि रूपिणः उद्गलाः आ आकाशादेकद्रव्याणि निष्क्रियाणि च असङ्ख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् आकाशस्यानन्ताः सङ्ख्येयासङ्ख्येयाश्च उद्गलानां नाणोः लोकाकाशे वगाहः धर्माधर्मयोः कृत्स्ने एकप्रदेशादिषु भाज्यः पुद्गलानाम् असङ्ख्येयभागादिषु जीवानां प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः आकाशस्यावगाहः शरीरवाङ्मनः प्राणापानाः पुद्गलानां सुखदुःखजीवितमरणोपग्रहाश्च परस्परोपग्रहो जीवानां वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य स्पर्शरसगन्धवर्णवन्तः उद्गलाः शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च अणवः स्कन्धाश्च भेदसङ्घातेभ्य उत्पद्यन्ते भेदादणुः भेदसङ्घाताभ्यां चाक्षुषः सद्द्रव्यलक्षणम् उत्पादव्ययद्रव्ययुक्तं सत् तद्भावाव्ययं नित्यम् अर्पितानर्पितसिद्धेः स्निग्धरूक्षत्वाद्बन्धः न जगन्यगुणानां गुणसाम्ये सदृशानां द्व्यधिकादिगुणानां तु बन्धेधिकौ पारिणामिकौ च गुणपर्ययवत् द्रव्यं कालश्च सुवनन्तसमयः द्रव्याश्रया निर्गुणा गुणाः तद्भावः परिणामः इति पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः कायवाङ्मनः कर्म योगः स आश्रवः शुभः पुण्यस्याशुभः पापस्य सकषायाकषाययोः साम्प्रायिकैर्यापथयोः इन्द्रियकषायाव्रतक्रियाः पञ्चचतुः पंच पंचविंशति संख्याः पूर्वस्य भेदाः तीव्र मंद ज्ञाता ज्ञात भावाधिकरण वीर्य विशेषेभ्यस्तद्विशेषः अधिकरणं जीवा जीवाः आद्यं संरंभ समारंभारंभ योग कृत कारितानुमत कषाय विशेषैस् त्रिस् त्रिस् त्रिश्चतुश्चैकशः निर्वर्तना निक्षेप संयोग निसर्गा द्विचतुर्द्वित्रिभेदाः परम् तत्प्रदोष निन्नौ मात्सर्यांतराया साधनोपघाता ज्ञान दर्शना वर्णयोः दुख शोक तापाक्रंदन वध परिदेवना न्यात्म परो भयस्थान्यसद्वेद्यस्य भूतव्रत्यनुकंपादान सराग संयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य केवलिश्रुत संघधर्म देवावरणवादो दर्शन मोहस्य कषायोदयात् तीव्र परिणामश चारित्र मोहस्य बहुवारंभ परिग्रहत्वन नारकस्यायुषः माया तैर्यघ्योनस्य अल्पारंभ परिग्रहत्वं मानुषस्य स्वभाव मार्दवंच निशील व्रतत्वंच सर्वेषां सराग संयम संयमा संयमा काम निर्जरा बाल तपांसि दैवस्य सम्यक्त्वंच योग वक्रता विसंवादनं चाशुभस्य नाम्नः तद्विपरीतं शुभस्य दर्शन विशुद्धिर विनय संपन्नता शील व्रतेष्वनति चारो भीक्षण ज्ञानोपयोग संवेगौ शक्तितस्त्याग तपसी साधु समाधिर वैयावृत्यकरण मर्हदाचार्य बहुश्रुत प्रवचन भक्तिरावश्यका परिहानिर मार्ग प्रभावना प्रवचन वत्सलत्वमिति तीर्थकरत्वस्य परात्मनिंदा प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य तद्विपर्ययो नीचैर्वृत्यनुत्सेकौ चोत्तरस्य विघ्नकरणमन्तरायस्य इति षष्ठोऽध्यायः अथ सप्तमोऽध्यायः हिंसानृतस्तेया ब्रह्म परिग्रहेभ्यो विरतिर्व्रतम् देश सर्वतोणु महती तत्स्थैर्यार्थं भावनाः पञ्च पञ्च वाङ्मनोगुप्तीर्यादान निक्षेपण समित्यालोकितपान भोजनानि पञ्च क्रोध लोभ भीरुत्व हास्य प्रत्याख्यानान्यनुवीचि भाषणञ्च पञ्च शून्यागार विमोचितावास परोपरोधाकरण भैक्ष्यशुद्धि सधर्मा विसंवादाः पञ्च स्त्रीराग कथाश्रवण तन्मनोहरांग निरीक्षण पूर्वरतानुस्मरण वृषेष्ट रसस्वशरीर संस्कार त्यागाः पञ्च मनोज्ञा मनोज्ञेन्द्रिय विषय राग द्वेष वर्जनानि पञ्च हिंसा दिश्विहा मुत्रा पाया वद्य दर्शनम् दुःखमेव वा मैत्री प्रमोद कारुण्य माध्यस्थ्यानि च सत्वगुणाधिक क्लिश्यमाना विनेयेषु जगत्काय स्वभावौ वा संवेग वैराग्यार्थम् प्रमत्त योगात् प्राणव्यपरोपणं हिंसा असदभिधानमनृतम् अदत्तादानं स्तेयं मैथुनमब्रह्म मूर्छा परिग्रहः निःशल्यो व्रती अगार्यनगारश्च अणुव्रतोगारी दिग्देशानर्थदण्डविरति सामायिकप्रोषधूपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्पन्नश्च मारणान्तिकीं सल्लेखनां जोषिता शङ्काकाङ्क्षा विचिकित्सान्यदृष्टिप्रशंसा संस्तवाः सम्यग्दृष्टेरतीचाराः व्रतशीलेषु पञ्च पञ्च यथा क्रमं बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः मिथ्योपदेश रहुभ्याख्यान कूटलेखक्रिया न्यासापहार साकारमन्त्रभेदाः स्तेन प्रयोग तदाहृतादान विरुद्धराज्यातिक्रम हीनाधिकमानोन्मान प्रतिरूपकव्यवहाराः परविवाहकरणे त्वरिका परिगृहीता परिगृहीता गमनानङ्गक्रीडा कामतीव्राभिनिवेशाः क्षेत्रवास्तु हिरण्यसुवर्ण धनधान्य दासीदास कुप्यप्रमाणातिक्रमाः ऊर्ध्वाधस्तिर्यव्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि आनयन प्रेष्य प्रयोग शब्द रूपानुपात पुद्गलक्षेपाः कंदर्प कौत्कुच्य मौखर्या समीक्षाधिकरणोपभोग परिभोगा नर्थक्यानि योग दुःप्रणिधानादर स्मृत्यनुपस्थानानि अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादान संस्तरोपक्रमणानादर स्मृत्यनुपस्थानानि सचित्त संबंध सम्मिश्राभिषवदु पक्वाहाराः सचित्त निक्षेपापिधान परव्यपदेश मात्सर्यकालातिक्रमाः जीवित मरणाशंसा मित्रानुराग सुखानुबंध निदानानि अनुग्रहार्थं स्वस्याति सर्गो दानं विधिद्रव्यदात्रिपात्र विशेषात् तद्विशेषः इति सप्तमोऽध्यायः। अथाष्टमोऽध्यायः मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः। सकषायत्वाज्जीवः कर्मणो योग्यान् उद्गलानादत्ते सबन्धः। प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः। आद्यो ज्ञानदर्शनावरण वेदनीयमोहनीयायुर्नामगोत्रान्तरायाः पञ्चनवद्व्यष्टाविंशति चतुर्द्विचत्वारिंशत् द्विपञ्चभेदा यथाक्रमं मतिश्रुतावधि मनःपर्यय केवलानां चक्षुरचक्षुरवधि केवलानां निद्रानिद्रानिद्रा प्रचला 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 स्त्यानगृद्धयश्च सदसद्वेद्ये दर्शनचारित्रमोहनीया कषाय कषाय वेदनीयाख्यास् त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्व तदुभयान्यकषाय कषायौ हास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसञ्ज्वलनविकल्पाश्चैकशः क्रोधमान्मायालोभाः नारकतैर्यघ्योन् मानुषदैवानि गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थान सङ्गननस्पर्शरसगन्धवर्णानुपूर्व्या गुरुलघूपघात परघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशः कीर्ति सेतराणि तीर्थकरत्वञ्च उच्चैर्नीचैश्च दानलाभभोगोपभोगवीर्याणाम् आदितस्तिसृणामन्त्रायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परास्थितिः। सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः त्रयस्त्रिंशत्सागरोपमाण्यायुषः अपरा द्वादशमुहूर्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणामन्तर्मुहूर्ता विपाकोऽनुभवः स यथा नाम ततश्च निर्जरा नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः सद्वेद्य शुभायुर्नाम गोत्राणि पुण्यम् अतोऽन्यत् पापम् इत्यष्टमोऽध्यायः। अथ नवमोऽध्यायः आश्रवनिरोधः संवरः। सगुप्तिसमिति धर्मानुप्रेक्षापरिषहजय चारित्रैः तपसा निर्जरा च सम्यग्योगनिग्रहो गुप्तिः ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः उत्तमक्षमामार्दवार्जव शौचसत्यसंयम तपस्त्यागा किञ्चन्यब्रह्मचर्याणि धर्मः अनित्याशरण संसारैकत्वान्यत्वाशुच्याश्रव संवरनिर्जरालोक बोधिदुर्लभ धर्मस्वाख्यातत्वानुचिन्तन मनुप्रेक्षाः मार्गाच्यवन निर्जरार्थं परिशोढव्याः परीशहाः क्षुत्पिपासा शीतोष्णदंशमशक नाग्न्यारतिस्त्रीचर्या निषद्या शय्याक्रोशवधयाचना लाभरोगतृणस्पर्श मलसत्कारपुरस्कार प्रज्ञाज्ञानादर्शनानि सूक्ष्मसाम्परायच्छद्मस्तवीतरागयोश्चतुर्दश एकादश जिने बादरसाम्पराये सर्वे ज्ञानावरणे प्रज्ञाज्ञाने दर्शनमोहान्तराययोरदर्शनालाभौ चारित्रमोहे नाज्ञारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः वेदनीये शेषाः एकादयो भाज्या युगपदैकस्मिन्नैकोनविंशतेः सामायिकच्छेदोपस्थापना परिहारविशुद्धि सूक्ष्मसाम्प्राय यथाख्यातमिति चारित्रम् अनशनावमौदर्य वृत्तिपरिसंख्यान रसपरित्याग विविक्तशय्यासन कायक्लेशा बाह्यन्तपः प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ఆలోచన ప్రతిక్రమణ తదుభయ వివేక వ్యుత్సర్గ తపశ్చేద పరిహారోపస్థాపన జ్ఞాన దర్శన చారిత్రోపచారా ఆచార్యోపాధ్యాయ తపస్వి శైక్ష్య గ్లాన గణ కుల సంఘ సాధు మనోజ్ఞానాం వాచనా ప్రచ్ఛనాను ప్రేక్షామ్నాయ ధర్మోపదేశా బాహ్యాభ్యంతరోపద్యో ఉత్తమ సంగననస్యైకాగ్రచింతా నిరోధో ధ్యానమాంతర్ముహూర్తాత్ ఆర్త రౌద్ర ధర్మ్య శుక్లాని పరే మోక్ష హేతు ఆర్త మమనుజ్ఞస్య సంప్రయోగే తద్విప్రయోగాయ స్మృతి సమన్వాహార విపరీతం మనోజ్ఞస్య వేదనాయాశ్చ నిదానంచ తదవిరత దేశ విరత ప్రమత్త సంయతానాం హింసానృతస్తేయ విషయ సంరక్షణేభ్యో రౌద్రమవిరత దేశ విరతయో ఆజ్ఞాపాయ విపాక సంస్థాన విజయాయ ధర్మ్యం శుక్లే చాద్యే పూర్వవిద పరే కేవలిన పృథక్వైకత్వ వితర్క సూక్ష్మక్రియా ప్రతిపాతి విపరత క్రియా నివర్తీని త్రేక యోగ కాయ యోగా యోగానాం ఏకాశ్రయే సవితర్క వీచారే పూర్వే అవీచారం ద్వితీయం వితర్క శ్రుతం వీచారోర్థ వ్యంజన యోగ సంక్రాంతి సమ్యక్ దృష్టి శ్రావక విరతానంత వియోజక దర్శన మోహ క్షపకోప శమకోప శాంత మోహ క్షపక క్షీణ మోహ జినాః క్రమశో సంఖ్యేయ గుణ నిర్జరాః పులాక్ బకుష కుశీల నిర్గ్రంథ స్నాతక నిర్గ్రంథాః సంయమ శ్రుత ప్రతిసేవన తీర్థ లింగ లేష్యోపపాద స్థాన వికల్పతః సాధ్యాః ఇతి నవమోధ్యాయః అథ దశమోధ్యాయః మోహక్షయాజ్ జ్ఞానదర్శనావరణాంతరాయ క్షయాచ్చ కేవలం బంధహేత్వభావ నిర్జరాభ్యాం కృత్స్నకర్మ విప్రమోక్షో మోక్షః ఔపశమికాది భవ్యత్వానాంచ అన్యత్ర కేవల సమ్యక్త్వ జ్ఞానదర్శన సిద్ధత్వేభ్యః తదనంతరమూర్ధ్వం గచ్చత్యా లోకాంతాత్ పూర్వప్రయోగాదసంగత్వాద్ బంధఛేదాత్ తథాగతి పరిణామాచ్చ ఆవిద్ధకులాలచక్రవద్ వ్యపగతలేపాలాభువదేరండబీజవదగ్నిశిఖావచ్చ ధర్మాస్తికాయాభావాత్ క్షేత్రకాలగతిలింగతీర్థచారిత్ర ప్రత్యేకబుద్ధబోధితజ్ఞానావగాహనాంతరసంఖ్యాల్పబహుత్వతః సాధ్యః ఇతి దశమోధ్యాయః
అక్షరమాతృపదస్వరహీనం వ్యంజన సంధి వివర్జిత రేఫం సాధుభిరత్ర మమ క్షమితవ్యం పూన విముహ్యతి శాస్త్ర సముద్రే దశాధ్యాయే పరిచ్ఛిన్నే తత్వార్థే పఠితే సతి ఫలం స్యాదుపవాసస్య భాషితం మునిపుంగవైః తత్వార్థసూత్రకర్తారం గృద్రపిక్షోపలక్షితం వందే గణీంద్ర సంజాత ముమా స్వామి మునీశ్వరం ఇతి తత్వార్థసూత్రం.